एशा रेडियो नेपाल सम्प्रति समाचार श्रूयन्ता प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपति रामचन्द्र पौडेल निगदति कृषि क्षेत्रस्य विकासेन विपन्नता न्यूनीकर्तुं शक्यते। एतद् विक्रमवर्षीयं बृहद् काभ्रेपलाञ्चोको कृषि महोत्सवं ह्य बनेपा स्थाने उद्घाटयन् राष्ट्रपति पौडेल स्वदेशे एव उत्पादनं वृत्त्युपार्जनानि च प्रवर्ध्य आयातस्य न्यूनीकरणं निर्यातस्य प्रवर्धनं च प्रति नीति निर्मातृभि योजनाविद्भि सर्वकारेण च विशेष कार्यक्रम आनीतव्या इति बलं प्रादात्। राष्ट्रपति पौडेल राजनीतिक परिवर्तनस्य पश्चात् राष्ट्रस्य आवश्यक तत्वेष् आर्थिक समृद्धि विकास शान्तिश्च सन्तीति प्रावोचत्। राष्ट्रपति पौडेल कृषि पशुपालनेन सहैव लोपोन्मुखावस्थानां प्रविधे अभ्यासस्य पारम्परिक कृषिश्च संरक्षणं संवर्धनञ्च विधाय नूतन सन्तत्यै परिचाय च ज्ञानशिल्प प्रविधिनाम हस्तान्तरणार्थं बलं दत्तवान्। तदवसरे राष्ट्रपतिना पौडेलेन काभ्रेपलाञ्चोको सिन्धुपाल्चोको जनपदयोः विभिन्न विधानाम उत्कृष्ट कृषकः सम्मानिताः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति विश्वव्यापी हरितवायोः उत्सर्जने शून्य प्राय योगदानं सदपि नेपालेन जलवायु परिवर्तनस्य प्रत्यक्षम् असमान हानिकारकस्य प्रभाव सह्यमानो वर्तते। जलवायु परिवर्तने सबल विकासे च सांसदानां भूमिका विषयकं सम्मेलनं ह्य काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री प्रचण्ड जलवायु परिवर्तनं सामाजिकार्थिक वातावरण सन्तुलनाय विपुल समाहोयो स्थिति प्रावोचत्। प्रधानमन्त्री प्रचण्ड अत्यल्प विकसित राष्ट्राणि जलवायु परिवर्तनस्य प्रभावात् अधिक संकटापन्नानि सन्तीति उदयरयत्। प्रधानमन्त्री प्रचण्ड पारिस्थितिक प्रणाल्या जलवायु परिवर्तनेन च सह जनताया तादात्म्यं स्थापयितुं स्थानीय स्तरे जलवायोः अनुकूलनत्वेन योजना क्रियान्वेतुम् अतिरिक्तानां स्रोतसाम् आवश्यकता स्थिति अब्रवीत्। तदवसरे प्रधानमन्त्री प्रचण्ड स्वच्छोर्ज सुरक्षितुं प्रतिशतं पञ्चचत्वारिंशतावनक्षेत्रेण आच्छादितां भूमिं रक्षितुं नेपाल पूर्णरूपेण प्रतिबद्धो स्थिति चर्चयन् नेपाल पेरिस संविधान प्रति पूर्ण प्रतिबद्धतां व्यक्तवान्। नेपाली कांग्रेस दलेन अशैव फाल्गुनस्य सप्तम दिवसात् दशम दिवसं यावत् सञ्चलिष्यमाणे महासमितेः उपवेशे प्रस्तुष्यमाणः प्रस्तावः केन्द्रीय कार्यसमितेः उपवेशात् पारितीकृताः वर्तन्ते। केन्द्रीय समितेः परह्य ह्यश्च उपविष्टेन उपवेशेन उपसभापतिना पूर्णबहादुर खड्गाभिधेन प्रस्तुतः नीति प्रस्तावः महामन्त्रिणा गगन कुमार थापाभिधेन प्रस्तुतः सांगठनिक प्रस्तावः प्रवक्त्रा डाक्टर प्रकाश शरण महत इत्यनेन प्रस्तुतम् आर्थिकवस्थया सम्भावनया भावि कार्यदिशया च सम्बद्धं प्रतिवेदनं लेखा समितेः संयोजकेन श्यामकुमार घिमिरेभिधेन प्रस्तुतं लेखा परीक्षण प्रतिवेदनञ्च पारितीकृतानि वर्तन्ते। उपवेशे एते सर्वे प्रस्तावाः विमृश्य प्राप्तानि परामर्शनानि समाविश्य च सपरिमार्जनं महासमितेः उपवेशे प्रस्तुष्यमाणत्वेन पारितीकृताः सन्ति इति मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। एवमेव उपवेशेन महासमितेः सदस्य पदे अवर्तमानान् प्रदेश कार्य समितेः सभापतिन् जनपद कार्य समितेः सभापतिन् भ्रातृ संघ संगठनानां शुभेच्छुक संस्थानांश केन्द्रीयाध्यक्षांश महासमितेः उपवेशे आमन्त्रित सदस्यत्वेन सहभागिनो विधातुं निर्णीतं वर्तते। एवमेव उपवेशेन नेपाली कांग्रेस संघीय संसद संसदीय दलस्य कार्यसमितेः निर्वाचनं विधातुं सह महामन्त्रिण भीष्मराज आङ्दम्बे इत्यस्य संयोजकत्वे केन्द्रीय सदस्यद्वयस्य पुष्पा भूषालस्य प्रकाश रसाइली इत्यस्य च सदस्यत्वे निर्वाचन समितिं संघटयितुं च निर्णीतम् अस्ति इति मुख्य सचिवः पौडेलः असूचयत्। ललितपुरस्य बालकुमारी घटनायाः यथार्थम् अनुसन्धातुं संघटितेन आयोगेन उपप्रधान गृहमन्त्रिणः नारायण काजी श्रेष्ठस्य समक्षं प्रतिवेदनं प्रस्तुतं वर्तते। प्रतिवेदनं गृह्णन् उपप्रधानमन्त्री श्रेष्ठः आयोगेन तथ्यम् अन्विष्य निर्मितस्य प्रतिवेदनस्य क्रियान्वयनं विधास्यते इत्यवोचत्। गतस्य पौषमासस्य त्रयोदश दिवसे ललितपुरस्य बालकुमारी स्थाने ईपीएस कोरिया शाखा कार्यालये आवेदन प्रपत्र प्रस्तुते विषयमाधृत्य जाति प्रदर्शने अछाम जनपदस्य चौरपाटी स्थानस्य वीरेन्द्र शाह दैलेख जनपदस्य महाबू स्थानस्य सुजन राउत मृतौ आस्ताम घटनाया विषये तथ्यम अन्वेष्य मासाभ्यन्तरे प्रतिवेदनम प्रस्तुतम् उच्च न्यायालयस्य पूर्व न्यायाधीशस्य शेखर प्रसाद पौडेलस्य अध्यक्षतायां मन्त्री परिषदा गत पौष मासस्य षोडशे दिवसे आयोगसौ संघटित आसीत। भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला भाषते विकास कार्यस्य गुणस्तरीयताया विषये कथं विधापि उपेक्षा न सह्यते। राष्ट्रिय गौरवस्य मूलमार्गा योजनाया अन्तर्गतस्य निर्माणाधीनस्य नेपालगंज गुलरिया मार्गखण्डस्य खजुरा क्षेत्रस्य अनुगमनम् विदधानो मन्त्री ज्वाला अभाषत केनापि व्याजेन विकास निर्माण कार्येष् विलम्बनम् न सह्यते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली निगदति समृद्ध नेपाल सुखिनो नेपालिनश्चेति राष्ट्रिय आकांक्षां पूरयितुं राजनीतिक दलेषु सहकार्यम् आवश्यकम् वर्तते। विश्व सामाजिक मञ्चस्य षोडश सम्मेलनस्य सन्दर्भे नेपाल बुद्धिजीवी परिषदा ह्यः काष्ठमण्डपे आयोजिते विमर्शन कार्यक्रमे अध्यक्ष ओली अवदत् कस्यापि दर्शनस्य विचारस्य वा अपेक्षया देशहिताय जनपक्षे च कार्यम् कर्तुं दलीय सहमतेः आवश्यकता भवति। अध्यक्ष ओली पारस्परिकस्य हितस्य लाभस्य सामाजिक न्यायेन सहितास परराष्ट्र नीतिं प्रति स्वदलस्य दृढ समर्थनम् वर्तते इत्यभाषत। कार्यक्रमे नेकपा माओवादी दलस्य सचिव सुरेन्द्र कार्की समाजवादी आन्दोलनम् निष्कर्षे प्रापयितुं समाजवादस्य पक्षधरै दलै एकीभूय अग्रे प्रवर्तनीयम् इति अवोचत। नेपाली कांग्रेस दलस्य नेता डाक्टर मिनेन्द्र रिजाल देशस्य अर्थतन्त्रम् गतिशीलम् विधातुं विकास व्ययस्य वर्धनाय परामृशत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति महता त्यागेन बलिदानेन च साम्प्रतिकी लोकतान्त्रिक व्यवस्था संस्थापितास्तीत्यतः अस्या संरक्षणाय पूर्ण क्रियान्वयनाय च सर्वेषां योगदानम् आवश्यकम् वर्तते। पत्राचार सेवा विभागेन प्रकाशितेषु पत्राचार चिटिकासु प्रथम दिवसीयं टंकणं विधातुं ह्य मन्त्रालये आयोजिते कार्यक्रमे मन्त्री शर्मा राजनीतिक व्यवस्थाया परिवर्तने प्रापित योगदानान् अग्रजान् सम्मान्य प्राप्तोपलब्धिनां रक्षायै समेषां सहयोगः आवश्यको भवतीति प्रावोचत्। मन्त्री शर्मा व्यवस्थायाः परिवर्तनाय स्पर्धितानां जनानां सम्मानः विधीयमानो वर्तते एतदर्थं वर्तमान सर्वकारः क्रियाशीलश्चास्तीति उदैरयत्। कार्यक्रमे नेकपा माओवादी केन्द्रस्य नेता दीनानाथ शर्मा सहना प्रधान प्रतिष्ठानस्य अध्यक्ष रामकुमारी झाक्री च विचारं प्राकटयताम्। ह्य सार्वजनिक कृताः पत्रचिटिकाः चतुष्षष्ठी वर्षाणां पश्चात् पुनः नेपाले एव मुद्रिता वर्तन्ते इति पत्राचार सेवा विभागस्य महानिर्देशकः प्रदीप राज अधिकारी अज्ञापयत्। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समितेः उपवेशे नेपाल विश्वविद्यालयं सशक्तं प्रभावकारिणं च विधातुं विज्ञै सह विमृष्टम् वर्तते। समितेः उपवेशे शिक्षाविद् डाक्टर चैतन्य मिश्र विधिविज्ञ माधव पौडेलश्च सम्प्रति विद्यमानेषु विश्वविद्यालयेषु अध्यापितेभ्य विषयेभ्य अतिरिक्तानां नवीनानां विषयाणाम् अध्यापनस्य व्यवस्था नेपाल विश्वविद्यालय विधातव्या इति प्रावोचताम्।